ओम नमो भगवते वासुदेवाय। अथ षोडशोऽध्यायः। उद्धव उवाच, त्वं ब्रह्म परमं साक्षादनाद्यन्तमपावृतं सर्वेषामपि भावानां त्राणस्थित्यप्ययोद्भवः उच्चावचेषु भूतेषु दुर्गेयमकृतात्मभिः उपासते त्वां भगवन् याथा तथ्येन ब्राह्मणाः येषु येषु च भावेषु भक्त्या त्वां परमर्षयः उपासीना प्रपद्यन्ते संसिद्धिं तद्वदस्व मे। गूढश्चरसि भूतात्मा भूतानां भूतभावन न त्वां पश्यन्ति भूतानि पश्यन्तं मोहितानि ते। या काश्च भूमौ दिवि वैरसायां विभूतयो दिक्षु महाविभूते तामह्यमाख्यायनुभावितास्ते नमामि ते तीर्थपदाङ्घ्रिपद्मम्। श्रीभगवानुवाच, एवमेतदहं पृष्टः प्रश्नं प्रश्नविदाम्बर युयुत्सुना विनशने सपत्नैरर्जुनेन वै। ज्ञात्वा ज्ञातिवधं गर्यमधर्मं राज्यहेतुकं ततो निवृत्तो हन्ताहं हतोऽयमिति लौकिकः। सतदा पुरुषव्याघ्रो युक्त्या मे प्रतिबोधितः अभ्यभाषत मामेवं यथा त्वं रणमूर्धनि। अहमात्मोद्भवामीषां भूतानां सुहृदीश्वरः अहं सर्वाणि भूतानि तेषां स्थित्युद्भवाप्ययः। अहं गतिर्गतिमतां कालः कलयतामहं गुणानां चाप्यहं साम्यं गुणिन्योत्पत्तिको गुणः। गुणिनामप्यहं सूत्रं महतां च महानहं सूक्ष्माणामप्यहं जीवो दुर्जयानामहं मनः। हिरण्यगर्भो वेदानां मन्त्राणां प्रणवस्त्रिवृत् अक्षराणामकारोऽस्मि पदानि छन्दसामहम्। इन्द्रोऽहं सर्वदेवानां वसूनामस्मि हव्यवात् आदित्यानामहं विष्णु रुद्राणां नीललोहितः। ब्रह्मर्षीणां भृगुरहं राजर्षीणामहं मनुः देवर्षीणां नारदोऽहं हविर्धान्यस्मि धेनुषु। सिद्धेश्वराणां कपिलः सुपर्णोऽहं पतत्रिणां प्रजापतीनां दक्षोऽहं पितॄणामहमर्यमा। मां विद्युद्धव दैत्यानां प्रह्लादमसुरेश्वरम् सोमं नक्षत्रौषधीनां धनेशं यक्षरक्षसाम् ऐरावतं गजेन्द्राणां यादसां वरुणं प्रभुं तपतां द्युमतां सूर्यं मनुष्याणां च भूपतिम्। उच्चैश्रवास्तुरङ्गाणां धातूनामस्मि काञ्चनं यमसंयमतां चाहं सर्पाणामस्मि वासुकिः। नागेन्द्राणामनन्तोऽहं मृगेन्द्रः शृङ्गिदंष्ट्रीणाम् आश्रमाणामहं तुर्यो वर्णानां प्रथमो नघ। तीर्थानां स्रोतसां गङ्गा समुद्रः सरसामहम् आयुधानां धनुरहं त्रिपुरघ्नो धनुष्मताम्। धिष्ण्यानामस्म्यहं मेरुर्गहनानां हिमालयः वनस्पतीनाम् अश्वत्थ औषधीनामहं यवः। पुरोधसां वसिष्ठोऽहं ब्रह्मिष्ठानां बृहस्पतिः स्कन्दोऽहं सर्वसेनान्यामग्रण्यां भगवानजः। यज्ञानां ब्रह्मयज्ञोऽहं व्रतानामविहिंसनम् वायवज्ञर्काम्बुवागात्मा शुचीनामप्यहं शुचिः। योगानामात्मसंरोधो मन्त्रोऽस्मि विजिगीषताम् आन्वीक्षिकी कौशलानां विकल्पः ख्यातिवादिनाम्। स्त्रीणां तु शतरूपाहं पुंसां स्वायम्भुवो मनुः नारायणो मुनीनां च कुमारो ब्रह्मचारिणां। धर्माणामस्मि सन्न्यासः क्षेमाणामबहिर्मतिः गुह्यानां सोन्दितं मौनम् मिथुनानामजस्त्वहम्। संवत्सरोऽस्म्यनिमिषा मृतूनां मधुमाधवौ मासानां मार्गशीर्षोऽहं नक्षत्राणां तथाभिजित्। अहं युगानां च कृतं धीराणां देवलोसितः द्वैपायनोऽस्मि व्यासानां कवीनां काव्यात्मवान्। वासुदेवो भगवतां त्वं तु भागवतेष्वहं किं पुरुषाणां हनुमान् विद्याध्राणां सुदर्शनः। रत्नानां पद्मरागोऽस्मि पद्मकोशः सुपेशसाम् कुशोऽस्मि दर्भजातीनां गव्यमाज्यं हविष्वहम्। व्यवसायिनामहं लक्ष्मीः कृतवानां छलग्रहः तितिक्षास्मि तितिक्षूणां सत्वं सत्त्ववतामहम्। ओजसहो बलवतां कर्माहं विद्धि सात्वतां सात्वतां नवमूर्तीनामादिमूर्तिरहं परा। विश्वावसु पूर्वचित्तिर्गन्धर्वाप्सरदामहम् भूधराणामहं स्थैर्यं गन्धमात्रमहं भुवः। अपां रसश्च परमस्तेजिष्ठानां विभावसुः प्रभासूर्येन्दुताराणाम् शब्दोऽहम् नभसः परः, ब्रह्मण्यानाम् बलिरहम् वीराणामहमर्जुनः, भूतानाम् स्थितिरुत्पत्तिरहम् वै प्रतिसङ्क्रमः, गत्युक्त्युत्सर्गोपादान मानन्दस्पर्शलक्षणम् आस्वादश्रुत्यवघ्राणमहम् सर्वेन्द्रियेन्द्रियम्, पृथिवी वायुराकाश आपो ज्योतिरहम् महान्, विकारः पुरुषो व्यक्तम् रज सत्त्वम् तमः परम्, अहमेतत् प्रसङ्ख्यानम् ज्ञानम् तत्त्वविनिश्चयः, मयेश्वरेण जीवेन गुणेन गुणिना विना, सर्वात्मनापि सर्वेण न भावो विद्यते क्वचित्, सङ्ख्यानम् परमाणूनाम् कालेन क्रियते मया, न तथा मे विभूतीनाम् सृजतोऽण्डानि कोटिशः, तेजः श्रीः कीर्तिरैश्वर्यम् ह्रीस्त्यागः सौभगम् भगः, वीर्यम् तितिक्षा विज्ञानम् यत्र यत्र समेऽंशकः, एतास्ते कीर्तिता सर्वा संक्षेपेण विभूतयः, मनोविकारा एव इते यथा वाचाभिधीयते, वाचम् यच्छ मनो यच्छ प्राणान् यच्छेन्द्रियाणि च, आत्मानमात्मना यच्छ न भूयः कल्पसेध्वने, यो वै वाङ्मनसि सम्यगसंयच्छन् ध्यायतिः, तस्य व्रतम् तपोदानम् स्रवत्यामघटाम्बुवत्, तस्मान्मनोवचः प्राणान् यच्छेन्मत्परायणः, मद्भक्तियुक्तया बुद्ध्या ततः परिसमाप्यते। ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् एकादशस्कन्धे षोडशोऽध्यायः, श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाभिमाम्, यथा त्वच्चरणाम् भोजे रतिः स्यादनपायिनी।